नमस्सर्वेभ्यः अद्य विभक्तिवर्गे पञ्चविंशः पाठः जुलै मासस्य द्वितीयः दिनाङ्कः रामो राजमणिः सदा विजयते रामं रमेशं भजे रामेणाभिहता निशाचरसमूहु रामाय तस्मै नमः रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहम् रामे चित्तलयः सदा भवतु मे भो राम मामुद्धर गुरुरेव गतिः गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोः मतिरस्ति गुरौ मम पाहि गुरो सप्तमी विभक्तेः अध्ययनं प्रचलति ततः पूर्वं केनचित् पृष्टम् अस्मिन् श्लोके अन्तिमपङ्क्तौ मम पाहि गुरो इत्यस्ति वस्तुतः मां पाहि गुरो इति भवेत् किल इति पूर्वमपि कदाचित् चर्चितं तत्र द्वेधा समाधानं वक्तुं शक्यते एकं तु मम इत्यस्य अन्वयः पाहि इत्यनेन न अपि तु मतिः मम मतिः गुरौ अस्ति गुरो पाहि इत्येव मामिति अध्याहारः सो वि अस्यूम् प्रेजेन्स् आफ् मा सो द फस्ट् वे इस् टु असोसियेट् मम वित् मतिः सो मम मतिः गुरौ अस्ति अण्ड् देन् गुरो पाहि सो दट् इस् डिफरेण्ट् अन्वय सो द मम इस् नाट् असोसियेटेड् डिरेक्ट्लि वित् पाहि बट् ईवन् वित् पाहि इट् इस् पासिबल् टु डिफेण्ड् इट् बै यूसिङ्ग् षष्ठी बिकास् Shashti is a very general vibhakti in Sanskrit. Anything which is related, any kind of relation can be conveyed by Shashti. So that is why what Panini does when he is framing rules for vibhaktis in his Ashtadhyayi, he specifies the rules for all the vibhaktis and then he just says Shashti, Sheshe. So for the rest, there is Shashti. So that for the rest, so among the rest you can cover any kind of relation. So mam pahi is of course correct when you are saying protect me. But if that karma, that is the object is not intended to be conveyed, so you can just say it's protection in relation to me. What exactly is that relation without specifying? So that's something maybe you will understand more when you study karakas and vibhaktis in detail with the sutras, but mama pahi can be justified that way, or we can alter the anvaya and take it with matihi. Okay, so we'll go ahead. Saptami vibhaktihi, saptami vibhakte hai punaravartanam kurmaha. Adhikaranam athava adharaha tasmat saptami vibhaktihi bhavati iti drashtam. तत्र अधिकरणं द्विविधं दृष्टम् एकं तु देशः कुत्र इत्यस्य प्रश्नरूपेण कुत्र इति यत्र प्रश्नः क्रियते तदा तस्य उत्तरं भवति अधिकरणं फलानि वृक्षे सन्ति जलं कूप्याम् अस्ति मीनाः जाले सन्ति अत्र सर्वत्र देशः देशः डस् नाट् मीन् अ कण्ट्री in this context, just means a place, a location. Okay, so where it is present. Kalaha api adhikaranam bhavitum arhati. So time. So it is a physical location and what we call a temporal location, on time where it is situated. So kada ityasya uttaram api saptami vibhaktau eva bhavati. Aham pratahkale snanam karomi. Pratahkalaha iti. चैत्रमासे श्रीरामः जातः बोर्न् इन् द मन्त् आफ् चैत्र सो चैत्रमासः इति कालवाचकम् सः पञ्चवादने आगच्छति सो एवम् अत्र सर्वत्र कालवाचकानां शब्दानामपि सप्तमी विभक्तिः दृश्यते अद्य किञ्चित् अग्रे सरामः सर्वेषु वचनेषु सप्तमी विभक्तेः रूपाणि कथं भवन्ति अकारान्तस्य पुल्लिङ्गस्य बाले बालयोः बालेषु इति रूपम्, स्त्रीलिङ्गस्य बालिकायां बालिकयोः बालिकासु, महिलायां महिलयोः नार्यां नार्योः नारीषु इति ईकारान्तस्य भवति, मित्रे मित्रयोः मित्रेषु इति नपुंसकलिङ्गस्य रूपाणि भवन्ति. इदानीम् अभ्यासं कुर्मः कुत्र किमस्ति इति वक्तव्यम्. यथा चेन्नैनगरे गृहम् अस्ति, गृहे अहम् अस्मि इति सप्तमी विभक्तिम् उपयुज्य वाक्यानि वक्तव्यानि. ये वक्तुमिच्छन्ति कृपया हस्तम् उन्नयन्तु. उमाशङ्करि
श्रूयते वा?
श्रूयते श्रूयते.
भुवने भुवने भूखण्डाः अस्ति
सन्ति
भूखण्डाः सन्ति भूखण्डे 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 देशाः सन्ति
भूखण्डेषु देशाः सन्ति
भूखण्डे भूखण्डेषु देशाः सन्ति देशेषु राज्यानि सन्ति राज्येषु नगर्यः सन्ति नगरीयेषु प्रदेशाः सन्ति
नगरीषु
प्रदेशाः सन्ति प्रदेशेषु गृहाणि सन्ति गृहेषु जनाः सन्ति.
सम्यक्. वेङ्कटेश्वरम् यु हव् टु अन्म्यूट् युवर् सेल्फ् यु हव् म्यूटेड् प्लीस् क्लिक् आन् द मैक्रोफोन् बटन् टु अन्म्यूट् युवर् सेल्फ्
क्षेत्राणि सन्ति क्षेत्रेषु
क्षेत्रेषु
वृक्षाः सन्ति वृक्षायां
वृक्षेषु
फलानि सन्ति
वृक्षेषु
फलानि फलेषु
फलेषु बीजानि सन्ति. सम्यक्. ग्रामे क्षेत्राणि, क्षेत्रेषु वृक्षाः, वृक्षेषु फलानि, फलेषु बीजानि. मलकोण्डय्य महोदय
हरि ओम्.
हा वदतु.
नगरे उद्यानानि सन्ति उद्यानेषु लताः सन्ति लतासु पुष्पाणि सन्ति पुष्पेषु मकरन्दम् अस्ति.
सम्यक्. शारदा शङ्कर शारदा भगिनी न श्रूयते. शारदा गोपालन्
यु भारते नद्याः सन्ति नदी जलम् अस्ति जले मीनाः सन्ति
सम्यक् श्रीप्रिया
पत्तनानि पत्तेषु शालाः पत्तेषु पत्तनेषु शालाः सन्ति शालेषु शालासु प्रकोष्ठाः सन्ति प्रकोष्ठेषु छात्राः सन्ति
प्रकोष्ठेषु छात्राः सन्ति सम्यक् पॉल
नगर्यां ग्रन्थालयाः सन्ति ग्रन्थालयेषु पुस्तकानि सन्ति पुस्तकेषु चित्राणि सन्ति चित्रेषु वर्णाः सन्ति
सम्यक् इदानीम् अस्मिन् अभ्यासे द्विवचनवाक्यानि वक्तव्यानि यत् पदं कंसयोः दीयते तस्य सप्तमी विभक्तौ द्विवचनरूपम् उपयुज्य वाक्यं रचनीयम् श्रीधर
नमस्ते हस्तफलमस्ति हस्तयोः फलमस्ति
सम्यक्
पादयोः व्रणः अस्ति
पादयोः व्रणः अस्ति कस्य पदस्य सप्तमी
ओ वार्ता कर्णयोः
कर्णयोः पतति फाल्स् इन् द इयर्स् अ न्यूस् फाल्स् इन् द इयर्स् वार्ता कर्णयोः पतति शिवराम कुलकर्णी
नमो नमः नेत्रयोः दृष्टिः नास्ति घटयोः जलं पूर्णम् अस्ति गृहयोः जनाः न सन्ति
सम्यक् महादेवन्
कपाटिकयोः वस्त्राणि सन्ति नद्योः जलं नास्ति कूप्योः क्षीरं पूरय
शारदा
नमस्ते
हा वदतु
पत्रिकयोः वार्ताः भीकराः सन्ति शालयोः छात्राः पठन्ति लेखन्योः मशी नास्ति
सम्यक् इदानीं बहुवचनवाक्यानि यत् पदम् अत्र पदम् इति नास्ति प्रश्नाः सन्ति सप्तमी बहुवचनम् उपयुज्य उत्तरं दातव्यम्. सिंहाः कुत्र वसन्ति? मलकोण्डय्य महोदय.
हरि ओम्. सिंहेषु
सिंहाः कुत्र वसन्ति?
सिंहाः वनेषु वसन्ति.
वनेषु वसन्ति, सम्यक्. सिंहाः वनेषु वसन्ति अथवा सिंहाः गुहासु वसन्ति, उभयं
वसन्ति. पक्षिणां कुत्र वसन्ति खलु? पक्षिणः आकाशेषु वसन्ति.
आकाशे वसन्ति इत्येव वक्तव्यं. वृक्षेषु वसन्ति.
वृक्षेषु वसन्ति.
नीडेषु वसन्ति. उमाशङ्करि.
मीनाः जले वसन्ति.
मीनाः कुत्र? मीनाः जले वसन्ति.
जले वसन्ति.
मीनाः नदीषु वसन्ति, समुद्रेषु वसन्ति. सम्यक्. इट् डजन्ट् मेटर् वट्.
कृषकाः कुत्र वसन्ति? कृषकाः ग्रामेषु वसन्ति.
कृषिकाः ग्रामेषु वसन्ति. सम्यक्. शारदा.
फलानि वृक्षेषु भवन्ति. फलानि आपणेषु भवन्ति.
आपणेषु अपि भवन्ति, सत्यम्.
पुष्पाणि लतासु भवन्ति.
पुष्पाणि लतासु भवन्ति, सम्यक्. महादेवन्.
पत्राः गृहेषु पठन्ति, शालासु पठन्ति.
गृहेषु पठन्ति, शालासु पठन्ति.
जनाः नगर्यां वसन्ति.
नगरीषु वसन्ति. नगरेषु वसन्ति, ग्रामेषु वसन्ति. आम्, धन्यवादाः. थैंक यू. श्रीधर.
नमस्ते. जय नमः. गृहेषु वसन्ति.
गोष्ठेषु वसन्ति. गृहेषु सत्यं.
कथाः पुस्तकेषु भवन्ति.
पुस्तकेषु भवन्ति, सम्यक्. पाल्.
Okay, so it's नाटकानि कुत्र प्रदर्शितानि भवन्ति? नाटकानि कुत्र प्रदर्शितानि भवन्ति? Okay, so नाटकानि शालायां नाटकानि शालायां प्रदर्शितानि.
नाटकानि शालायां प्रदर्शितानि अथवा रङ्गमन्दिरेषु प्रदर्शितानि भवन्ति. सो रङ्गमन्दिरम् इस् एन् आडिटोरियम् थियेटर्.
जलं कुत्र भवति? नदी जलं नद्ये नो नद्यां
नद्यां बहुवचने
अस्ति.
बहुवचने
ओके ना ओके जलम ना ना नारी
नदीशु
नदीशु ओके नदीशु नदीशु सो जलम नदीशु संति
भवति जलम भवति जला इज स्टिल सिंगुलर जलम नदीशु भवति
या 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 सो जलम जलम नदीशु भवति अस्ति
अस्ति भवति ऑल मीन द सेम या
बाय ओके
थैंक यू इदानीं अन्यत् एकम् अधिकरणं पश्यामः विषयः सो देयर आर सम केसेस वेयर इट इज नॉट अ फिजिकल सबस्ट्रैटम और आधार बट इट इज रिलेटेड टू इट एज एन इट्स अ विषय और द सब्जेक्ट ऑफ इट उदाहरणं ध्रुवस्य नारायणे महती भक्तिः So he had great devotion towards Narayana. That is mostly when we are talking of emotions. So towards whom it is directed or in whom it is there. So here in, it is not physically located in Narayana. Narayanasya vishaye ityarthaha. Narayanasya vishaye mahati bhaktihi. Mama vyakarane iccha asti. So vyakarana vishaye. So I like vyakarana. I have liking towards vyakarana. Shri Krishnasya pandaveshu preetihi asit. So Krishna had affection towards the Pandavas. Evam yatra vishayaha asti yatra bhava suchakani padani prayujyante tesham vishayaha api adhikaranam bhavati tatra saptami vibhaktihi उपयुज्यते इदानीं बालस्य कस्मिन् आसक्तिः इति सप्तमी विभक्तिम् उपयुज्य वक्तव्यम् सो एनीबडि हु हैज नॉट ट्राइड सो फार वुड लाइक टू ट्राई पद्मनाभन
नमस्ते
हाँ
बालस्य अध्ययने आसक्तिः अस्ति बालस्य क्रीडासु आसक्तिः अस्ति बालस्य चलचित्रेषु आसक्तिः अस्ति चित्रकलायां च आसक्तिः अस्ति बालस्य पाठे आसक्तिः अस्ति कथासु आसक्तिः अस्ति संस्कृते आसक्तिः सङ्गीते च आसक्तिः अस्ति
सम्यक् सो अध्ययने क्रीडासु चलच्चित्रेषु चित्रकलायां पाके कथासु संस्कृते सङ्गीते च आसक्तिः अस्ति सो ऐ थिंक यू नो द मीनिंग्स ऑफ ऑल अध्ययनं स्टडीज क्रीडा स्पोर्ट चलचित्राणि मूवीज चित्रकला पेंटिंग पाकः कुकिंग कथाः स्टोरीज संस्कृतम संगीतम म्यूजिक एवं कस्मिन् भक्तिः इति वक्तव्यम् शर्मा महोदय
नारायणे भक्तिः रमायां भक्तिः परमेश्वरे भक्तिः भगवत्यां भक्तिः गणेशे भक्तिः गङ्गायां भक्तिः सरस्वत्यां भक्तिः आचार्येषु भक्तिः
सम्यक् सो नारायणे भक्तिः रमायां परमेश्वरे भगवत्याम गणेशे गंगायाम सरस्वत्याम आचार्येषु भक्तिः सो अत्र कानिचन वाक्यानि रचनीयानि अर्जुनस्य कस्मिन् कः भावः इति वक्तव्यम्। रमा श्रीधर
नमस्ते।
श्रीकृष्णे
भक्तिः अस्ति।
श्रीकृष्णे भक्तिः अस्ति आसीत् किमपि।
युधिष्ठिरे उद्धवम् आसीत्। अर्जुनस्य द्रौपद्यां प्रीतिः आसीत्। अर्जुनस्य अहोदरेषु वात्सल्यम् आसीत्। अर्जुनस्य प्रजायां कारुण्यम् आसीत्।
प्रजाः
प्रजेषु
प्रजासु
प्रजासु कारुण्यम् आसीत्। अर्जुनस्य धर्मे श्रद्धा आसीत्।
सम्यक्। श्रीकृष्णे भक्तिः, युधिष्ठिरे गौरवम्, गौरवम् इस् रेस्पेक्ट्, द्रौपद्यां प्रीतिः, सहोदरेषु वात्सल्यम्, वात्सल्यम् इस् अफेक्षन्, प्रजासु कारुण्यम्, कम्पाशन् टुवर्ड्स् द सब्जेक्ट्स्, धर्मे श्रद्धा। धन्या।
दुर्योधनस्य पाण्डवेषु द्वेषः आसीत्। दुर्योधनस्य कर्णे स्नेहः आसीत्। दुर्योधनस्य मातुले विश्वासः आसीत्। दुर्योधनस्य धर्मे तिरस्कारः आसीत्। दुर्योधनस्य ज्येष्ठेषु अनादरः आसीत्। दुर्योधनस्य राज्ये मोहः आसीत्।
सम्यक्। सो पाण्डवेषु द्वेषः, हेट्रेड्, कर्णे स्नेहः, फ्रेण्ड्शिप्, मातुलः, मातुलः इस् अङ्कल्, मेटर्नल् अङ्कल्, मदर्स् ब्रदर् विच् इस् शकुनी। सो मातुले विश्वासः, ट्रस्ट् आसीत्। धर्मे तिरस्कारः, तिरस्कार इस् टु रिजेक्ट् समथिङ्ग्, टु नाट् रेस्पेक्ट्, डिस्रेस्पेक्ट्। ज्येष्ठेषु अनादरः, राज्ये मोहः। इदानीं सर्वनामपदानां सप्तमी विभक्तिरूपाणि पश्यामः। तस्मिन् तयोः तेषु, पुल्लिङ्गे नपुंसकलिङ्गे च समानम्। तस्मिन् तयोः तेषु, तस्यां तयोः तासु, एतस्मिन् एतयोः एतेषु, एतस्याम् एतयोः एतासु, मयि आवयोः अस्मासु, त्वयि युवयोः युष्मासु। एवं सर्वनामपदानां रूपाणि। कस्मिन् प्रीतिः इति राव महोदय।
Can you hear me?
Yes, I can hear you, but I cannot see your raised hand. I don't know why. I don't see your high hand raised. For the whole day, it was not. So.
Yeah, I raised it and lowered it several times to see if it works. Obviously, there's a problem, either my setup or something like that.
Yes, okay.
Anyhow, Kasmin Preeti Hasti. Saha. एकस्मिन् प्रीतिः अस्ति सः
न न तस्य इति वक्त लीव् द जस्ट् सो तस्मिन् प्रीतिः नेक्स्ट् एषा
एषा एतस्मिन्
एतस्याम् स्त्रीलिङ्गम्
एषा ओके ऐ एम् सोरि स्त्रीलिङ्ग एतस्यां प्रीतिः अस्ति तस्मिन्
अहम्
ओ अहं मयि प्रीतिः अस्ति तस्मिन् प्रीतिः अस्ति सा तस्यां
तस्यां
प्रीतिः तस्यां प्रीतिः अस्ति एतस्यां प्रीतिः अस्ति
एतस्मिन्
प्रीतिः अस्ति त्वयि प्रीतिः अस्ति एतस्मिन् प्रीतिः अस्ति
सम्यक् धन्यवादाः सो अत्र एक्स्क्यूस् मी जस्ट् वन् मोमेण्ट् अत्र वाक्यानि सन्ति तत्र रिक्तं स्थलं पूरणीयम् हरमन्दर सिंह
एतस्मिन् गृहे पञ्च जनाः सन्ति
सम्यक् एतत् गृहम् एतस्मिन् गृहे पञ्च जनाः सन्ति
एतस्मिन् पर्वते
सः पर्वतः
ओ सोरि तस्मिन् पर्वते घोरं वनम् अस्ति
तस्मिन् पर्वते घोरं वनम् अस्ति
एतस्यां नद्यां स्नानं पुण्यप्रदं भवति
सम्यक् एषा नदी एतस्यां नद्यां स्नानं पुण्यप्रदं भवति
एतासु
ताः द्रोण्यः तासु
तासु सोरि तासु तासु द्रोण्यासु
द्रोणीषु
द्रोणीषु जलं पूरय
पूरय द विसर्ग इस् अ मिस्टेक् सो तासु द्रोणीषु जलं पूरय सम्यक् नेक्स्ट् शिवराम कुलकर्णी
नमो नमः एते छात्राः एतेषु छात्रेषु गुरुभक्तिः अस्ति
एतेषु छात्रेषु गुरुभक्तिः
गुरुभक्तिः अस्ति वयम् अस्मासु भारतीयेषु राष्ट्रनिष्ठा भवेत्
सम्यक्
यूयम्
सो अगेन् देयर्स् अ टैपिङ्ग् एरर्
युष्मासु मित्रेषु मम प्रीतिः अस्ति तयोः मातापितरयोः सर्वदा गौरवं भवतु
तयोः मातापित्रोः
मातापित्रोः सर्वदा गौरवं भवतु
सम्यक् इदानीम् अग्रे गच्छामः. सो सप्तमी इस् एक्चुअली क्वैट् एन् ईजी विभक्ति. सो द मेन् केस् आफ् सप्तमी विभक्ति इस् द अधिकरण आफ् डिफरेण्ट् कैण्ड्स्, देशः, कालः, विषयः इत्यादि. इदानीम् अन्यत् अन्यं प्रयोगं पश्यामः. निर्धारणषष्ठी अथवा सप्तमी इत्युच्यते. आदौ उदाहरणानि पश्यामः. धनुर्धराणां रामः श्रेष्ठः अथवा धनुर्धरेषु रामः श्रेष्ठः. राम इस् द बेस्ट् अमङ्ग् आर्चर्स्. सो द सेन्स् आफ् अमङ्ग् वेन् देर् इस् अ ग्रूप् एण्ड् यु आर् सेपरेटिङ्ग् सम्थिङ्ग् फ्रम् द ग्रूप् बेस्ड् आन् एक्वालिटि. सो वी केन् यूस् बोत् षष्ठी एण्ड् सप्तमी. ओके, सो धनुर्धराणां रामः श्रेष्ठः इत्यपि साधु, धनुर्धरेषु रामः श्रेष्ठः इत्यपि साधु. वेदानां ऋग्वेदः प्रथमः, वेदेषु ऋग्वेदः प्रथमः. सो ऋग्वेद इस् द फस्ट् अमङ्ग् द वेदास्. सो वेदानां वेदेषु इति षष्ठी सप्तमी उभयं साधु. प्राणिनां गजः बृहत्तमः, प्राणिषु गजः बृहत्तमः. एलिफेण्ट् इस् द बिग्गेस्ट् अमङ्ग् अनिमल्स्. सो प्राणिनाम् अथवा प्राणिषु. नदीनां गङ्गा पवित्रा, नदीषु गङ्गा पवित्रा. सो गङ्गा इस् सीक्रेट् अमङ्ग् द रिवर्स्. सो नदीनां नदीषु. सो सर्वत्र षष्ठी अथवा सप्तमी उपयोक्तुं शक्यते. सो यत् पदं कंसे अस्ति तस्य षष्ठी तथा सप्तमी विभक्त्योः प्रयोगः करणीयः. महादेवन्
काव्येषु नाटकं रम्यमस्ति.
आर् षष्ठी
काव्यानां नाटकं रम्यमस्ति.
सम्यक्. सो काव्यानां नाटकं रम्यम् आर् काव्येषु नाटकं रम्यम्.
नाटकेषु शाकुन्तलं श्रेष्ठमस्ति. नाटकानां शाकुन्तलं श्रेष्ठमस्ति.
नाटकेषु आर् नाटकानां शाकुन्तलं श्रेष्ठम्. सम्यक्. हरमन्दर्
सिंह. यानेषु विमानं शीघ्रं, यानानां विमानं शीघ्रम्.
सो यानानां यानेषु वयं साधु.
फलेषु आम्रफलं मम प्रियम्, फलानाम् आम्रफलं मम प्रियम्.
सम्यक्. शारदा गोपालन्. You have to unmute yourself. Click on the microphone.
Pushpanam kamalam sundaram, pushpeshu kamalam sundaram. Mitreshu rameshah aaptah. मित्राणां रमेशः आप्तः.
सम्यक्. पाल्.
पार्वतानां हिमालयः अत्युन्नतः. पर्वेषु
पर्वतेषु
हिमालय पर्वते पर्वतेषु हिमालयः अत्युन्नतः.
అతి ఉన్నత టాలెస్ట్ సో వెరీ టాల్ అతి ఉన్నత అత్యున్నత
అత్యున్నత ఛాత్రానాం శంకరః చతురః ఛాత్రేషు శంకరః చతురః
సమ్యక్ థ్యాంక్ యూ రావ్
అవతారాణాం వా అవతారేషు మత్స్యః ప్రథమః
అవతారాణాం మత్స్యః ప్రథమః అవతారేషు ప్రథమః
పుత్రాణాం వా పుత్రే మాధవః కనిష్ఠః
పుత్రేషు పుత్రాణాం అథవా పుత్రేషు మాధవః కనిష్ఠః సమ్యక్ మలకొండయ్య
హరి ఓం పాండవానాం భీమః బలిష్ఠః
పాండవేషు భీమః బలిష్ఠః
రాక్షసానాం రావణః క్రూరః రాక్షసేషు రావణః క్రూరః
సమ్యక్ తానేవ వాక్యాని అత్ర స్త్రీలింగ పదాని సంతి ఉమాశంకరి
శ్రూయతే వా భాషాసు సంస్కృత భాషా మధురా భాషాయాం సంస్కృత భాషా మధురా
షష్ఠి భాషాణాం సంస్కృత భాషా భాషాణాం అథవా భాషాసు
తారాసు అశ్విని ఆద్యా తారాణాం అశ్విని ఆద్యా
సమ్యక్
బాలికాసు గిరిజా కుశలా బాలికానాం గిరిజా కుశలా
సమ్యక్ బాలికానాం ఆర్ బాలికాసు అదర్స్ హుడ్ లైక్ టు ట్రై బాలచంద్రన్
పత్రికాణాం సుధర్మ మమ ప్రియా పత్రికాసు సుధర్మ మమ ప్రియా దక్షిణ భారతస్య నద్యాం
నదీనాం
నదీనాం కావేరీ దీర్ఘ దక్షిణ భారతస్య నదీషు కావేరీ దీర్ఘ పత్నీనాం కైకేయీ దశరథస్య ప్రియతమా పత్నీషు కైకేయీ దశరథస్య ప్రియతమా
అస్తు సమ్యక్ సో సచ్ cases are called nirdharanam. Okay, so there is a specific meaning for nirdharanam. We will not go into it. But when you are telling something is different among a few things, so we use shashti or saptami. Both vibhaktis are allowed. Okay. So the last case of saptami that we are going to see is called sati saptami. Excuse me for just one moment. So Sati Saptami is a prayoga which is again found very often in Sanskrita. Bahutra upayujyate. Rame Rajyam Prashasati Janaha Sarve Sukhinaha Asan. So this Saptami is used when there are two things, both happening simultaneously. You say that one thing happening when this happened. So when and then. So that sense is conveyed by the usage. So there is Saptami Vibhakti which is used for the entire phrase. Say Rame Rajyam Prashasati. When Rama was ruling the kingdom, Janaha Sarve Sukhinaha Asan. So all the people were happy. So Janaha Sarve Sukhinaha Asan iti Vakyam. So the people were happy. Kada chet Rame Rajyam Prashasati, when Rama was ruling the kingdom, or as Rama was ruling the kingdom. So at that time. So this is used as an indicator of the time when the other action happened. So you'll have two actions. So the indicator action gets Saptami. Janeshu Krandatsu Choraha Abharanani Apahritya Nirgataha. So the thief stole the ornaments and left. When Janeshu Krandatsu, as the people were shouting or yelling. So when, so both happened at the same time. Udite Surye Andhakaraha Nashtaha. When the sun rose, darkness was destroyed. So Udite Surye, when the sun had risen. Swajaneshu Drishteshu Arjunaha Vishadam Praptavan. When his people, his own people were seen, Arjunaha Vishadam Praptavan. Arjuna became dejected. So such phrases are called Sati Saptami. They are called Sati Saptami because the word Sati can be used. Different forms. Say Rame Rajyam Prashasati Sati. Janeshu Krandatsu Satsu. So Sat is the word. So as it was happening. So Saptami Bhakti is Sati Satohu Satsu, or in Strilinga Satyam Satohu Satishu. So when all these words can be used, but even without it, whether we use it or not use it, the sense is conveyed. Just the Saptami Vibhakti will convey the sense. You can also of course use it. Udite Surye, Surye Udite Sati Andhakaraha Nashtaha. Swajaneshu Drishteshu Satsu Arjunaha Vishadam Praptavan. Adaha Sati iti Shabdaha Yojayitum Shakyate. Tadvina api Saptami Vibhaktehe Upayogena. Artha Gamyate. So that sense is conveyed. So it is not compulsory to use Sati, but we commonly call this prayoga as Sati Saptami. Okay. So to use Sati Saptami, you will need familiarity with some words, like mainly the Shatru forms. So Krandan, you have the Patan Shabda, Patan, Patantau, Patantaha. So the Saptami would be Patati, Patatohu, Patatsu. So Prashasati, Prashasatohu, Prashasatsu. Or Krandati, Krandatohu, Krandatsu. That is one kind of word which is commonly used. Also the Kta Pratyayanta, which you should already know. So Udite, Uditayohu, Uditeshu. Drishte, Drishtayohu, Drishteshu. Gate, Gatayohu, Gateshu, etc. So we will do a small exercise. This will not cover Sati Saptami comprehensively, but I have mainly chosen the Kta Pratyayanta words because it is easy. They are Akaranta words and it is easy to use them. So you will have an idea on how to use Sati Saptami. Say Ramaha Gataha. So then these words in Saptami. Dasharathaha Pranan Tyaktavan. So before we go to this, what is the exact meaning of Sati here? See, Sat means that which is there. Asti is to be there. So as from Asti you have Sat. Okay, Satta is existence. So existing. So when it was there. So it doesn't carry a specific meaning. It is just like is. Okay, the word is or was. Okay. So there are a few exercises. श्रीधर
नमस्ते रामे गते दशरथः मां त्यक्तवान्
रामः गतः रामे गते दशरथः प्राणान् त्यक्तवान् when Rama was gone or after he went so Dasharatha left his life he died
putri mrita putriyam mritayam pitarau bahu dukkhitau
putriyam mritayam so when the daughter was dead pitarau bahu dukkhitau so putriyam mritayam dhanyavada ha padmanabhan
kalyam prasannayam bhaktaha varam prathavan
kalyam prasannayam when kali the devi was pleased bhaktaha varam praptavan
पित्रोः सुप्तयोः पुत्रः बहिः गतवान्
पित्रोः सुप्तयोः वेन् द पेरेण्ट्स् वेर् स्लीपिङ्ग् और् आफ्टर् दे हेड् स्लेप्ट् पुत्रः गृहात् बहिः गतवान् सम्यक् शर्मा महोदय
कृष्णे दृष्टे जनाः मुक्तिं प्राप्तवन्ति
कृष्णे दृष्टे वेन् कृष्णा इस् सीन् पीपल् अटैन् मुक्ति आर् साल्वेशन्
अध्यापिकायाम् आगतायां छात्राः तूष्णीम् अभवन्
अध्यापिकायाम् आगतायां छात्राः तूष्णीम् अभवन् सो वेन् द टीचर् केम् द स्टूडेण्ट्स् बिकेम् सैलेण्ट् Okay. So, if you have such Ktapatayanta forms, you can convert them to Saptami to get the Sati Saptami. Similarly, if you have the Shatranta forms, say Balaha Pathannasti, Pathati Bale Mata Ahutavati. So, the boy was reading. When the boy was reading, mother called and so on. So, I have not included that because we have not studied the forms of such words. But this is how we use Sati Saptami. Sati Saptami is used when two actions happen simultaneously to indicate that one happened during or just after the other happened. We use Sati Saptami. Okay. So with this we have completed Saptami Vibhakti. Saptami Vibhakti is used in sense of Adhikarana, of Desha, Kala or Vishaya and in Nirdharana when you are separating one from among a group of things also in this Sati Saptami. So next class will be the last class of the course. So we will do a quick recap of what we have studied about all the different Vibhaktis and do a few practice exercises involving different Vibhaktis. Okay. Any questions? So can you please add sati forms also for these? Yes, I mean maybe I'll, in the notes I will. So if you want to listen, Rame Gate Sati Dasharathaha Pranan Tyaktavan Putriyam Mritayam Satyam Pitarau Bahudukhitau Kalyam Prasannayam Satyam Bhaktaha Varam Praptavan Pitroho Suptayoho Satoho Putraha Grihad Bahihi Gatavan कृष्णे दृष्टे सति जनाः मुक्तिं प्राप्नुवन्ति अध्यापिकायाम् आगतायां सत्यां छात्राः तूष्णीम् अभवन् सो ऐ विल् एड् द सति फार्म्स् वेन् ऐ एम् अप्लोडिङ्ग् दिस् प्रेसेण्टेशन् ओके देर् आर् ए कपल् आफ् अदर् क्वश्चन् There is one more question. I mean, two questions regarding. One, did I teach Samasa Prakaranam earlier? Not as a general course. I have done Samasa as part of the Siddhanta Kaumudi, but not in a general way. Maybe sometime later. So the next question is, when will I offer the Kridanta course? Actually, lots of people have asked for the Kridanta course. That will probably be my next course, but probably not immediately. So I'm doing my PhD and I need to submit my thesis in another couple of months, I mean 3 or 4 months. So after that, definitely Kridanta is probably one course which I will start after this. I mean, the next course will be that, but when? Not immediately, after a few months, probably by the end of the year. Okay, so we will stop here. Ramo Rajamani Sada Vijayate Ramam Ramesham Bhaje Ramena Bhihata Nishachara Chamuhu Ramaya Tasmai Namaha Ramannasti Parayanam Parataram Ramasya Dasosmyaham Rame Chittalaya Sada Bhavatume Bho Rama Mamuddhara Guru Reva Datihi Guru Meva Bhaje Guru Naiva Sahasmi Namo Gurave Naguroh paramam shishurasmi guroh matirasti guroh mamapahi guroh.